प्रते महे विदधे शंसि शंहरे प्रते वन्वे वनुषो हर्यतम् मदम् घृतम् नजो हरिभिश्चारुषे च त आत्मा विशन्तु हरिवर्पसङ्गिराः हरिम् हि योनिमभिजे समस्वरन् हिन्वन्तो हरे दिव्यम् यथा सदाः आजम् वृणन्ति हरिभिर्नधे नव इन्द्राजशोषम् हरिवन्तमर्चत सो अस्य वज्रो हरितोज आजसो हरिर्निकामो हरिरागभस्त्योः जुम्ने सुषिप्रो हरिमञ्जसाजक इन्द्रे निरूपा हरितामिमिक्षिरे दिवि न केतुरदिधाजि हरियतो विव्यजद्वज्रो हरितो नरम् ह्या तुददहिम् हरिषिप्रोज आजसः सहस्रशोका अभवद्धरिम् भरः त्वन्तमहर्यथा उपस्तुतः पूर्वेभिरिन्द्रहरिकेशयद्वभिः त्वम् हर्यजसि तव विश्वमुख्या अवसा विराधो हरिजात हर्यतम् तावज्रिणम् मन्दिरम् स्ताम्यम् मत इन्द्रम् रथे वहतो हर्यता हरिः पुरोण्यस्मै सवनानि हर्यत इन्द्राजसो माहरजो दधन्विरे अरङ्कामाजहरजो दधन्विरे स्थिराजहिन्वन्हरजो हरिः तुरा अर्वद्भिर्यो हरिभिर्जो शमीयते सो अस्य कामम् हरिवन्दमानशे हरिश्मचारुर्हरिकेश आजसस्तुरस्पे जेजो हरिपा अवर्धत अर्वद्भिर्यो हरिभिर्वाजिने एव सरति विश्वादुरिता पारिषद्धरे श्रुवे भजस्य हरिणे विपेततश्य प्रेवाजाज हरिणेदमिध्वतः प्रयत्कृते च वसे मनमृजद्धरे एपेत्त्वा मदस्य हर्यतस्यान्धसः उत स्म सत्म हर्यतस्य पस्त्यो ओरत्यो न वाजम् हरिवाङ् अजिक्रदत महे चिद्यधिषणा हर्यजतोजसा बृहद्वजो दधिषे हर्यतश्चिद आरोदसे हर्यमाणो महित्वा नव्यम् नव्यम् हर्यसि मन्मनप्रियम् प्रपस्त्यमसुर हर्यतङ्गोराविष्कृति हरजे सूर्याज आत्मा हर्यन्तम् व्रजोजनानाम् रथे वहन्तु हरिशिप्रमिन्द्र पिबाजथा प्रतिभृतस्य मध्वो हर्यन् यज्ञम् सधमादेदशोणिम् अपाः पूर्वेषाम् हरिवस्वतानामथो इदम् समनम् केवलन्ते मध्य सोमम् मधुमन्तमिन्द्रसत्रावृषम् जठर आवृषस्व